कर्णसनसंस्थितां त्रिनयनां पीतां शुकोलासिनी हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रुतां हस्तेर्मुद्गर पाशवज्ररसनां संबिभ्रतीं भूषणे व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत्।
नमस्तस्यै नमो नमः।